पृष्ठ संख्या एक, प्रथमः पाठः, सुभाषितानि। प्रथमः श्लोकः। पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते। द्वितीयः श्लोकः। सत्येन धार्यते पृथ्वी, सत्येन तपते रविः, सत्येन वाति वायुश्च, सर्वं सत्ये प्रतिष्ठितम्। तृतीयः श्लोकः। दाने तपसि शौर्ये च, विज्ञाने विनये नये, विस्मयो नहि कर्तव्यो बहुरत्ना वसुंधरा। चतुर्थः श्लोकः। सद्भिरेव सहासीत, सद्भिः कुर्वीत संगतिम्, सद्भिर्विवादं मैत्रीं च, नासद्भिः किञ्चिदाचरेत्। पञ्चमः श्लोकः। धनधान्यप्रयोगेषु विद्याया संग्रहेषु च, आहारे व्यवहारे च, त्यक्तलज्जा सुखी भवेत्। श्लोकः षष्ठः। क्षमावशीकृतिर्लोके क्षमया किं न साध्यते, शान्तिखड्गः करे यस्य, किं करिष्यति दुर्जनः।